श्रूयते वा?
हा भगिनि श्रूयते.
अस्तु. गतवर्गे वयं लट् लकारस्य अभ्यासं कृत्वा लोट् लकारस्य विषये पठितवन्तः. अद्य अपि कुर्मः एतत्. वयं किञ्चित् लट् लकारस्य विषये पठित्वा लोट् लकारं गच्छामः. अस्तु. अस्तु. अत्र मम स्क्रीन् शेर् करोमि. दृश्यते वा?
आं भगिनि दृश्यते.
अस्तु. अत्र प्लीस् लुक् आन् द रैट् सैड्. अत्र ध्यायेन पठन्तु. एतानि क्रियापदानि सन्ति अत्र. अस्तु. दीस् आर् वर्ब्स्. अत्र उत्तिष्ठति. अत्र वयं पठितवन्तः लट्लकारे परस्मैपदी क्रियापदानि सन्ति, आत्मनेपदीक्रियापदानि सन्ति. अत्र परस्मैपदीक्रियापदानां रूपम् अस्ति, आत्मनेपदीक्रियापदानां रूपम् अस्ति. तत्र भेदः अस्ति. अस्तु. अत्र प्रथमतया परस्मैपदीधातूनां विषये किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छामः. सो लास्ट् वीक् वी लर्न्ट् अबौट् द प्रेसेण्ट्, वी रिवैस् द प्रेसेण्ट् टेन्स् एण्ड् वी डिड् द आज्ञा प्रार्थना फार्म्, लैक् द रिक्वेस्ट् और् आर्डर् फार्म्. So this week we will revise the Parasmaipadi form for the Parasmaipadi Latlakaraha form, and then we will move on to Lotlakaraha. Astu.
Lotlakaraha is the Ajna form, right?
Yes, Ajna Prarthana form. So it is used for order or request.
Order or request, and that is called the Sanskrit Lotlakaraha.
Yes.
भगिनि प्रश्नः अस्ति लोट् लकारस्य विषये. यत्र प्रार्थना भवति तत्र आज्ञा कथं भवितुमर्हति भगिनि?
अत्र किमस्ति, आज्ञा इति उपयोगं कर्तुं शक्नुमः अथवा प्रार्थना, आज्ञा अथवा प्रार्थना.
द्वयोः कृते लोटकारस्य उपयोगं
तत्र बाल भवती कृपया पठतु इति वक्तुं शक्नुमः, अथवा भवती पठतु.
एतत्
आज्ञा, कृपया पठतु इति प्रार्थना अस्ति अत्र. अत्र एकनिमिषः. अस्तु. अत्र अस्ति उदाहरणानुरूपं रिक्तस्थानानि पूरयन्तु इति. अत्र किं करोति, किं कुरुतः, किं कुर्वन्ति. अत्र करोति इति अस्ति क्रीधातुः. अस्तु. अत्र उदाहरणमस्ति सिंहः गर्जति. तत्र द्विवचने सिंहौ गर्जतः. अत्र सिंहः इति पदस्य द्विवचनमस्ति, अपि गर्जति इति क्रियापदस्य अपि द्विवचनमस्ति. तत्र सिंहः गर्जति, सिंहौ गर्जतः, सिंहाः गर्जन्ति. अस्तु. अनन्तरं मृगः धावति. अत्र मृगः इति अकारान्तपुल्लिङ्गशब्दः. अत्र मृगः धावति. धावति नाम किम्?
रन्.
धावनं करोति. मृगः धावति, मृगौ धावतः, मृगाः धावन्ति. अत्र मोहन् महोदय मूषकः खादति, किं भवति?
मूषकौ खादतः, मूषकाः खादन्ति. बिडालः पिबति. बिडालः किमर्थं?
चेट् महोदय.
ओके. Thank you. बिडालः पिबति बिडालकौ पिबतः
बिडालकौ न न महोदय बिडालौ
ओ सारि बिडालौ सिंहौ बिडालौ बिडालौ पिबतः बिडालाः पिबन्ति
एकनिमिषः अत्र
सिंहः इत्युक्ते किमर्थं
पुनः
इत्युक्ते प्यारट् अहं चिन्तयामि भगिनि पिक इत्युक्ते किं भगिनि
पिकः नाम किं वा प्यारट् एव
प्यारट्
आम् एकनिमिषः अत्र ऐ वाण्ट् टु शेर् इट् इन् अनदर् वे एकनिमिषः
इत्युक्ते कुकु
अस्तु अस्तु एतदेव कुर्मः अस्तु पिकः कूजति इदानीं द्विवचने किं भवति
पिकौ कूजतः पिकाः कूजन्ति
आं समीचीनम् एकनिमिषः अस्तु अनन्तरं शुकः कूजति नागेश महोदय भवानेव करोति वा
शुकः कूजति शुकौ कूजतः शुकाः कूजन्ति
समीचीनम् अस्तु अनन्तरं मयूरः नृत्यति
शुकः इत्युक्ते पेरट् एव महोदय पिकः कोकिलः अस्ति शुकः न
अस्तु मयूरः नृत्यति
मयूरः नृत्यति मयूरौ नृत्यतः मयूराः नृत्यन्ति कृषकः कर्षति कृषकौ कर्षतः कृषकाः कर्षन्ति
समीचीनम् अस्तु इदानीम् अत्र गोपाल् महोदय भवान् अस्ति वा
I will join in 5 minutes begin here.
अस्तु अस्तु चिन्ता मास्तु अस्तु मोहन् महोदय भवान् एव करोतु सैनिकः रक्षति
सैनिकौ रक्षतः सैनिकाः रक्षन्ति वानरः आरोहति वानरौ आरोहतः वानराः आरोहन्ति अजाचरति अजा इत्युक्ते किमर्थम्
अजा नाम फीमेल्
ओके अजा सीता ओ दिस् इस् आकारान्त स्त्रीलिङ्ग अस्ति वा
आं स्त्रीलिङ्ग स्त्रीलिङ्गशब्दः
अजौ चरतः
अजे अजे
सीता सीते सीताः अजे चरतः अजाः चरन्ति
पुनः एकवारं वदतु महोदय अजा
अजे चरतः अजाः चरन्ति
समीचीनम् अस्तु इदानीं नागेश महोदय करोतु
बाला वदति बाले वदतः बालाः वदन्ति महिला गायति महिले गायतः महिलाः गायन्ति
क्षम्यताम् अस्तु पुनः करोतु महोदय क्षम्यताम्
चिन्ता नास्ति भगिनि बाला वदति बाले वदतः बालाः वदन्ति महिला गायति महिले गायतः महिलाः गायन्ति
समीचीनम् अस्तु इदानीम् अम्बा पचति पचति नाम किम् मोहन् महोदय भवान् करोतु
अम्बा पचति अम्बे पचतः अम्बाः पचन्ति पुष्पं विकासति पुष्पम् अकारान्त नपुंसकलिङ्ग
पुष्पमिति अकारान्त नपुंसकलिङ्गशब्दः
पुष्पे विकासितः पुष्पाणि विकासन्ति छात्रः तिष्ठति
विकासति न न महोदय अत्र पुष्पं विकसति इति दत्तमस्ति
विकसन्ति
अस्तु इदानीं नागेश महोदय
अस्तु भगिनि छात्रः तिष्ठति छात्रौ तिष्ठतः छात्राः तिष्ठन्ति फलं पतति फले पततः फलानि पतन्ति वाहनं चलति वाहने चलतः वाहनानि चलन्ति
अस्तु अत्र शक्यते इदानीं मोहन् महोदय भवान् समापयतु
बालः हसति बालौ हसतः बालाः हसन्ति वृद्धः पश्यति वृद्धौ पश्यतः वृद्धाः पश्यन्ति
समीचीनम् अस्तु अत्र एतदपि सः पूरितमस्ति पूरितः अस्ति अत्र प्रश्नाः सन्ति वा
न भगिनि
अस्तु इदानीम् अत्र एतत् अभ्यासे अत्र कर्तृपदम् आसीत् देयर वाज़ अ सब्जेक्ट् लैक् सिंहः गर्जति इदानीं वयम् एतत् अभ्यासं कुर्मः अत्र केवलं क्रियापदमेव अस्ति अस्तु अत्र पिबति अस्ति चेत् पिबति पिबतः पिबन्ति अस्तु अस्तु इदानीं गोपाल् महोदय भवान् अस्ति वा
यस् भगिनि
अस्तु आरम्भं करोतु
which one bagini
yeah the first one please read the example and then start
okay pibati pibatah pibanti khadati khadatah khadanti dhavati dhavatah dhadanti
davanti samichinam asu idanim mohan mahodaya अस्तु नागेश महोदय
अस्तु भगिनि जिघ्रति जिघ्रतः जिघ्रन्ति पश्यति पश्यतः पश्यन्ति नमति नमतः नमन्ति
समीचीनम् अस्तु अस्तु इदानीं करोतु महोदय
गच्छति गच्छतः गच्छन्ति रटति रटतः रटन्ति आरोहति आरोहतः आरोहन्ति
अत्र स्थगयतु अस्तु समीचीनम् अस्तु इदानीं गोपाल् महोदय भवान् करोतु.
गच्छति गच्छति गच्छतः गच्छन्ति रटन्ति रटति रटतः
दशमतः महोदय.
आरोहति आरोहतः आरोहन्ति अर्चति अर्चतः अर्चन्ति रक्षति रक्षतः रक्षन्ति.
अत्र स्थगयतु महोदय. इदानीं नागेश महोदय भवान् पठतु.
गायति गायतः गायन्ति विकसति विकसतः विकसन्ति चलति चलतः चलन्ति.
समीचीनम्. इदानीं मोहन महोदय.
हसति हसतः हसन्ति नाति नातः नातन्ति
स्नानन्ति
स्नाति स्नातः
स्नातन्ति
चिन्तयामि स्नानन्ति.
आम् बहुवचनं स्नानन्ति. अस्तु एतत् अभ्यासम् अपि एषः अभ्यासः पूरितः. इदानीम् अत्र प्रश्नाः सन्ति वा? अत्र चित्राणि दत्तानि सन्ति, तस्य आधारेण वयं वाक्यानि लेखनीयम्. अस्तु अत्र बालकद्वयम् अस्ति, देर् आर् टु बाय्स्. तदर्थं बालकौ पठतः, पठति इति क्रियापदं दत्तमस्ति. अस्तु बालकौ पठतः. अस्तु अत्र किमस्ति?
बालकौ लिखतः.
अत्र
अर्चकौ अर्चतः.
अत्र
गायकः गायति.
अस्तु इदानीं गोपाल् महोदय भवान् करोतु एतत्.
गायकः गायन्ति बालकौ पठतः.
न न महोदय, अत्र एतत् चित्रं फिफ्त् वन् महोदय.
बालकाः खादन्ति.
आम् अस्तु अत्र
बालकाः क्रीडन्ति. बालकः आरोहति. दिस् वन् बालकौ बाटम् भगिनि.
न अत्र बालकः
बालकः तरति.
अत्र स्थगयतु. इदानीं मोहन महोदय.
बालकौ बालकौ धावतः देन् कृषकः पिबति. कृषकः ऐ केन् यूस् वाट् एवर् ऐ वाण्ट् रैट् वर् भगिनी. इट् इस् धावतः पिबति. So, what are we supposed to do?
So, Mahodhya, so you make a subject, so you look at the picture, okay. And you make a subject like Balakaha. So, just take Balakau. So, Balakau, so what will the verb for me? Davataha, that's all. So, like that, what will it be here? Anantaram.
Balakaha Namati. dash yachati. Yachati is what, Bhagini? Kimartam?
Give, Mahoda, give. Dhanikaha.
Sainikaha yachati.
अस्तु समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा अस्तु अत्र गच्छामः अस्तु दृश्यते वा अत्र द्विवचनबहुवचनयोः वाक्यप्रयोगं कुर्वन्तु सो दे विल् गिव् द वाक्यं दे विल् गिव् द सेण्टेन्स् इन् एकवचनं वी हेव् टु पुट् इट् इन् द्विवचनम् अण्ड् बहुवचनं अण्ड् मेक् श्योर् यु चेञ्ज् द वचनम् आफ् आल् त्री all words in the sentence astu atra yeshah simhah asti dvivachane kim bhavati
ete simhau sta
ete ete va mahodaya dvivachanam bahuvachanam na
ओ एतौ क्षम्यताम् एतौ सिंहौ
सिंहौ स्तः समीचीनं बहु समीचीनं बहुवचने किं भवति
एते सिंहाः सन्ति
समीचीनं
बहुवचनम् एताः एषः एते
सिंहाः सन्ति अस्तु अनन्तरं सिंहः भ्रमति
एषः एषौ एषः
एतौ एतौ
एषः एतौ एते
आम् एषः एतौ एते
एते एषः एषौ एते ओके
नमस्तौ ते एतौ एतौ
ते एषः एतौ एते ओके
सिंहः भ्रमति सिंहौ भ्रमतः सिंहाः भ्रमन्ति
एतत् पुष्पम् अस्ति एते पुष्पौ स्तः एतानि
पुष्पे महोदय
पुष्पं पुष्पे पुष्पाणि एते पुष्पे सः एतानि पुष्पाणि सन्ति पुष्पं विकसति पुष्पे विकसतः पुष्पाणि विकसन्ति
अस्तु अनन्तरं गोपाल् महोदय भवान् करोतु एषः वृक्षस्य अपि वृक्षः फलति
एषः वृक्षः अस्ति एतौ वृक्षौ स्तः एते वृक्षाः सन्ति वृक्षः फलति वृक्षौ फलतः वृक्षाः फलन्ति
एतत् मित्रम् अस्ति एते मित्रे स्तः एतानि मित्राणि सन्ति मित्रं प्रसीदति मित्रे प्रसीदतः मित्राणि प्रसीदन्ति
एषः दीपः अस्ति एतौ दीपः दीपौ स्तः एषः एतौ एताः एते एषः एतौ एते एते दीपाः सन्ति दीपः ज्वलति दीपौ ज्वलतः दीपः दीपौ दीपाः ज्वलन्ति एषा तारिका अस्ति सो एते तारिके स्तः एताः तारिकाः सन्ति इस् इट् करेक्ट् भगिनि एषा एते एताः एण्ड् सारिका सारिके सारिकाः अस्ति स्तः सन्ति सारिका उपविशति सारिके उपविशतः सारिकाः उपविशन्ति
सारिका नाम किम् पक्ष्याः नाम अस्ति इट्स् अ टैप् आफ् बर्ड् अस्तु अस्तु अनन्तरं गोपाल् महोदय
एषः गृहाणि एषा गृहाणि अस्ति एषा गृहाणि अस्ति
गृहिणी महोदय गृहिणी
एषा एषा गृहिणी अस्ति करेक्ट् वयं श्रेणि गृहाणि एषा गृहिणी अस्ति एते गृहिणी गृहिणे स्तः एताः नदी नद्यौ नद्या एताः गृहिण्यः सन्ति गृहिणी गृहिण्यौ गृहिण्यः नदी नद्यौ नद्यः ओके एषः एते गृहिण्यौ स्तः एताः गृहिण्यः सन्ति गृहिणी पचति गृहिणी पचति गृहिण्यौ पचतः गृहिण्यः पचन्ति
एतत् यानम् अस्ति एते याने स्तः एतानि यानानि सन्ति यानं चलति याने चलतः यानानि चलन्ति
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा अस्तु न सन्ति चेत् अग्रे गच्छामः एकनिमिषः तत्र गतवर्गे वयं किञ्चित् लोट्लकारस्य विषये आरम्भं कृतवन्तः तद् अद्य तस्य विषये अग्रे किञ्चित् पठामः अस्तु तत्र लट्लकारस्य विषये प्रश्नाः सन्ति वा I do not want like both the forms to get mixed because we are learning about Parasmaipadi and Atmanepadi Dhatus in here, so...
Parantha Bhagini, Pratham Purush Upayoja Eva Vayam Patetvanta Gila, Madhyam Purush, Uttam Purush, Suna Kritvanta.
इदानीं न कृतवन्तः, परन्तु वि हेव् डन् देट्. सो एकवारं पुनस्मरणं कुर्मः वा?
अहं यच्छामि.
आम् अस्तु, कुर्मः. एकनिमिषः, तस्य विषये कुत्र अत्र अभ्यासः अस्ति एकवारं पश्यामि. अस्तु, अत्र अस्ति. अस्तु, अत्र पश्यते वा पुनः. अत्र प्रथमपुरुषः कृतवन्तः, इदानीम् उत्तमपुरुषं कृत्वा मध्यमपुरुषं कुर्मः. किमर्थं चेत् सुलभं भवति इति. अस्तु, प्रथमम् अत्र रिक्तस्थानानि पूरयन्तु. अत्र नागेश मोदि, भवान् एव करोतु.
आम्, अहं स्वर्णकारः. आवां स्वर्णकारौ. वयं स्वर्णकाराः. अहं चालकः. आवां चालकौ. वयं चालकाः. अहं रजकः. आवां रजकौ. वयं रजकाः. अहम् उद्यानपालकः. आवाम् उद्यानपालकौ. वयम् उद्यानपालकाः. अहम् शौचिकः. आवाम् शौचिकौ. वयम् शौचिकाः. अहम् न्यायाधीशः. आवाम् न्यायाधीशौ. वयम् न्यायाधीशः. अन्येपि कोऽपि कर्तुमिच्छति वा? Mohan Gopal Mahode?
Yes, yes, I can do.
Aham
Nyayadhishah. Avam Nyayadhishau. Vayam Nyayadhishah. Aham Chikitsakah. Aham Avam Chikitsakau. Vayam Chikitsakah. पत्रवाहकः. अहं पत्रवाहकः. आवां पत्रवाहकौ. वयं पत्रवाहकाः. बिलो भगिनि, केन् यु स्क्रोल् डौन्?
अस्तु, अत्र स्थगयतु महोदय. गोपाल् महोदय, भवान् करोतु.
अहं गोपालकः. अहम् आवां गोपालकौ. वयं गोपालकाः. अहं हस्तिपकः. हू इस् हस्तिपकः भगिनि? स्कल्प्चर् इस् अ स्कल्प्टर्. अहं हस्तिपकः. आवां हस्तिपकौ. वयं हस्तिपकाः.
महावत् महावत् महोदय, महावत् भवान् जानाति वा? एलिफेण्ट्
महूट्.
नो, यः यः हाथीं चालयति. एलिफेण्ट्
महूट्
महूट्
महूट्. वयं सैनिकाः. अहं सैनिकः. आवां सैनिकौ. वयं सैनिकाः. अहं लेखिका. आवां लेखिके. वयं लेखिकाः.
अहम् उपचारिका. आवाम् उपचारिके. वयम् उपचारिकाः. अहं शिक्षिका. आवां शिक्षिके. वयं शिक्षिकाः. अहं बालिका. आवां बालिके. वयं बालिकाः.
ऐ केन् डु. अहं नर्तकी. आवां नर्तक. इस् इट् नर्तक्यौ और् नर्तकौ?
नर्तक्यौ.
नर्तकी, नर्तक्यौ, नर्तक्यः. वयं नर्तक्यः गृहिणी, अहं गृहिणी आवां गृहिण्यौ, वयं गृहिण्यः, अहं नारी आवां नार्यौ, वयं नार्यः, अहं पत्री आवां पत्र्यौ,
पुत्री पुत्री.
ओ नो, ओ ऐ एम नाट् एबल् टु सी द डौन् पार्ट्.
पुत्री एव अस्ति.
नो,
कृपया किञ्चित् अधः गच्छतु भगिनि.
पुत्री पुत्र्यौ पुत्र्यः. ऐ एम नाट् एबल् टु सी द डौन् पार्ट्.
कादम्बरी भगिनि
किञ्चित्
यस् महोदय, अहं पुत्री आवां पुत्र्यौ, वयं पुत्र्यः, अहं गायिका आवां गायिके, वयं गायिकाः.
अस्तु, समीचीनम्. एतत् उत्तमपुरुषः अस्ति. अत्र एकनिमिषः. एकनिमिषः, अत्र अस्तु, एकनिमिषः. वि विल् जस्ट् टु मोर् एक्सर्सैजेस् सो दट् वी डो वन् वित् उत्तमपुरुषः वित् क्रियापदानि एण्ड् वन् वित् मध्यमपुरुषः एण्ड् क्रियापदानि. अस्तु, अस्तु, अत्र this is uttam prashah. so astu atra udaharanam asti, aham patami, avam patavah, vayam patamah. astu Gopal Mohandya, bhavan arambham karotu. everyone will do three of them so that everyone gets a turn. astu
aham uttishtami, avam uttishtavah, vayam uttishtamah. aham namami, आवां नमावः, वयं नमामः. अहं वदामि, आवां वदावः, वयं वदामः.
अहं पठामि, आवां पठामः, आवां पठावः, वयं पठामः. अहं लिखामि, आवां लिखावः, वयं लिखामः. अहं क्रीडामि, आवां क्रीडावः, वयं क्रीडामः.
अहं गच्छामि, आवां गच्छावः, वयं गच्छामः. अहं खादामि, आवां खादावः, वयं खादामः. अहं पिबामि, आवां पिबावः, वयं पिबामः. गोपाल् महोदय,
अहं पतामि, आवां पतावः, वयं पतामः. अहं भ्रमामि, आवां भ्रमावः, वयं भ्रमामः. अहं पृच्छामि, आवां पृच्छावः, वयं पृच्छामः.
अहं स्मरामि, आवां स्मरावः, वयं स्मरामः. अहं गायामि, आवां गायावः, वयं गायामः. अहं हसामि, आवां हसावः, वयं हसामः.
पचामि पचामि
आवां पचावः वयं पचामः अहं धावामि आवां धावावः वयं धावामः अहं स्नामि वयं स्नावः वयं स्नामः अग्रे कपाल महोदय
अहं पश्यामि आवां पश्यावः वयं पश्यामः अहम् अर्चामि आवाम् अर्चावः वयम् अर्चामः अहं प्रक्षालयामि आवां प्रक्षालयावः वयं प्रक्षालयामः
अहं यच्छामि आवां यच्छावः वयं यच्छामः अहम् उपविशामि आवाम् उपविशावः वयम् उपविशामः
समीचीनम् इदानीं मध्यमपुरुषस्य कुर्मः अत्र त्वं पठसि अत्र त्वं पठसि युवां पठतः यूयं पठत पुनः क्रमेण त्रीणि कुर्वन्तु त्वं उत्तिष्ठसि आं प्रथमतया मोहन् महोदय भवान् करोति
त्वं उत्तिष्ठसि त्वं युवां युवाम् उत्तिष्ठतः यूयम् उत्तिष्ठत त्वं नमसि युवां नमतः यूयं नमत त्वं वदसि युवां वदतः यूयं वदत
त्वं पठसि युवां पठतः यूयं पठतः त्वं लिखसि युवां लिखतः यूयं लिखतः त्वं क्रीडसि युवां क्रीडतः यूयं क्रीडतः त्वं गच्छसि यूयां गच्छतः यूयं गच्छतः
मेटन् भगिनि त्वं पिबसि युवां पिबथः यूयं पिबथ त्वं भ्रमसि युवां भ्रमथः यूयं भ्रमथ त्वं पृच्छसि युवां पृच्छतः यूयं पृच्छथ
त्वं निद्रासि युवां निद्रातः यूयं निद्रासि निद्रासि निद्रातः निद्रात यूयं निद्रात त्वं रमसि संसरसि युवां स्मरत युवां स्मरतः यूयं स्मरथ त्वं गायसि युवां गायतः यूयं गायत भगिनि ऐ हेव् वन् क्वश्चन् सो निद्रासि निद्रातः निद्रात आर् इस् इट् निद्र निद्रतः निद्रत
निद्राथः निद्राथ
Okay, thanks.
अस्तु त्वं हससि युवां हसथ यूयं हसथ त्वं पचसि युवां पचथ यूयं पचथ त्वं धावसि युवां धावथ यूयं धावथ
महोदय
एकोनवति
युवां स्नाथ यूयं स्नाथ त्वं पश्यसि युवां पश्यतः वयं पश्यथ सारि यूयं पश्यथ त्वं अर्चसि युवा अर्चतः यूयम् अर्चथ
त्वं प्रक्षालयसि यूयं प्रक्षालयतः
युवां युवां
त्वं युवां प्रक्षालयतः यूयं प्रक्षालयत त्वम् उपविशसि युवाम् उपविशतः यूयम् उपविशत त्वं यच्छसि युवां यच्छतः यूयं यच्छत
समीचीनम् अस्तु इदानीं पुनस्वरं पूरितवन्तः प्रश्नाः सन्ति वा अस्तु पुनः एतत् सम्भाषणं पठामः अस्तु उत्तिष्ठ यशो लभस्व इति अस्ति सम्भाषणम् एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च कः पिता भवति कः पुत्रः भवति
अहं पुत्रः
अस्तु गोपाल् महोदय पुत्रः अस्तु आरम्भं कुर्वन्तु
वत्स अत्र आगच्छ
किं
गीतापुस्तकम् आनय
अस्तु
अत्र उपविश उपविश प्रथमं कृष्णं स्मर प्रार्थनां कुरु ध्यानश्लोकं पठ उच्चैः वद
कं श्लोकं पठानि
प्रथमं श्लोकं पठ
पठानि भगिनि श्री पठामि नो
पठानि उत्तमपुरुषम् अस्ति महोदय एकवचनं
No, no. Kam shlokam. Which shloka should I read, no? So it is, it should be patami, no? What is it? It is patani?
No, lot lakara asti, mother.
Lot lakara is patani.
Oh, okay. Kam shlokam patani.
Oh, so, okay, I have to. I'm pita. Pratamam shlokam patha.
Bhavan kripaya yetasya artham विवृणोतु
विवृणोमि श्रद्धया शृणु अत्र पश्य
कुत्र पश्यामि
पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व
अग्रे किं करवाणि
एतं श्लोकं पञ्चवारं पठ
भवान् कृपया पाठयतु अनन्तरम् अहं प्रयत तै
तथैव कुरुष्व आरभावहै स्क्रोल् अप् भगिनि
He cannot see.
I can see.
Astu. Sambhashanam sampurnam bhagini.
Astu. Atra. Vatsa atra agaccha. अत्र आगच्छ इति लोट्लकारः अस्ति आगच्छति इत्यस्य लोट्लकारः अनन्तरं गीतापुस्तकम् आनयतु आनय
एकः प्रश्नः आगच्छ इस् लोट्लकारः
आम्
फ्यूचर टेन्स
आगच्छति
इस् प्रेजेंट
सो लोट्लकारः इस् प्रेजेंट वाट् इस् आज्ञा वाट् लकारः इस्
दट् इस् लोट्लकारः
ओके एंड
आगच्छ एंड आगच्छति सेम इज इट
नो बट वाट् इस् वर्तमान
काल लोट्लकारः इस् आज्ञा प्रार्थना फॉर्म
ओके बट दट् इस् आगच्छतु न आगच्छ और आगच्छतु इट इज सेम
या
यस इट इज बोथ लोट्लकारः
Yeah.
Okay, both load lakara. Okay.
And simple present lakara is what, Bhagini? What is it called?
Lat lakara.
Lat lakara.
Okay, lat lakara. Yeah, this is what it's called. Okay. All this is...
Atra agacha is current. Okay. Kim, what... Gita pustakam anaya. Bring the Gita book. Again, command. अस्तु ओके अत्र उपविश्य सिट् हियर् प्रथमं कृष्णं स्मर फस्ट् थिङ्क् आफ् लार्ड् कृष्ण प्रार्थनां कुरु डू युवर् प्रेयर् ध्यानश्लोकं पठ रीड् द ध्यानश्लोक उच्चैः वद स्पीक् लौड् एण्ड् क्लियर् कं श्लोकं पठानि विच् श्लोक शुड् ऐ रीड् प्रथमं श्लोकं पठ रीड् द फस्ट् श्लोक भवान् कृपया एतस्य अर्थं विवृणोतु यू कैण्ड्लि एक्स्प्लेन् द मीनिङ्ग् आफ् दिस् वर्स् विवृणामि ऐ विल् एक्स्प्लेन् श्रद्धया शृणु लिसन् अटेण्टिव्लि अत्र पश्य लुक् हियर् कुत्र पश्यानि वेर् डु ऐ हाव् टु सी पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व डस् इट् मीन् ओपन् द एय्त् पेज् इन् द बुक् ऐ डोण्ट् नो वाट् वीक्षस्व मीन्स् वीक्षस्व इस् वाट् टु सी आर्
सम्यक्तया सी महोदय सम्यक्तया पश्यतु इति अहं चिन्तयामि
वीक्षस्व इस् वाट् लुक् आर्
परन्तु अग्रे
किं करवाणि अग्रे किं करवाणि वाट् डु ऐ डु नेक्स्ट् एतं श्लोकं पञ्चवारं पठ
संस्कृतेन विवरणं करोतु महोदय भवान् तु आङ्ग्लभाषया अनुवादं करोति संस्कृतेन विवरणं
अग्रे किं करवाणि अग्रे किं करवाणि अग्रे किं करोमि नेक्स्ट् एतं श्लोकं पञ्चवारं पठ सो रीड् मीन् ऐ डोण्ट् नो हौ टु ट्रान्स्लेट् संस्कृत् इन् संस्कृत् एतं श्लोकं दिस् श्लोक पञ्चवारं फैव् टैम्स् पठ
पिता वदति पिता पुत्रं वदति गीतायां श्लोकमस्ति तत् श्लोकं पञ्चवारं पठत इति
ओके पिता वदति गीतायां श्लोकं पञ्चवारं ओके पञ्चवारं पठ इति वदति
भवान् कृपया पाठयतु.
भवान् कृपया पाठयतु. सो ही इज़ टेलिंग दैट आई मीन यू हैव टू टीच मी आई डोंट नो. सो भवान् कृपया पाठयतु एतं श्लोकं कृपया पाठयतु इति पुत्रः वदति. अनन्तरम् अहं प्रयतैः प्रयतैः मीन्स् व्हाट आई विल ट्राई हर प्रयतैः इत्युक्ते किमर्थं भगिनि
सः वदति भवान् एव इदानीं पाठयतु अहम् अनन्तरं प्रयत्नं करोमि
प्रयत्नं करोमि तथैव तथैव कुरुष्व
तथा एव करोतु वदति तथा एव करोतु
तथा एव करोतु
तथा एव आवां कुर्व कुरुष्व अहं चिन्तयामि भगिनि द्वितीयवचनम् अत्र आगच्छति किल
कुरुष्व इत्युक्ते कुरु कुरुष्व समानम् अर्थमस्ति वा
कुरु एकवचनं कुरुष्व द्विवचनं समान अर्थ
ओ तदैव कुरुष्व ओके वी विल डू लाइक दैट ओके
कुरुष्व द्विवचनं देन बहुवचनं कः
किमासीत्
दट् इस् करोमि कुर्मः कुर्वः कुर्मः युवां
करोमि अगेन् लट्लकारः
लट्लकारः लोट्लकारः
वी हैव टु बी इन् जस्ट् आज्ञा वी हैव टु बी इन् लोट्लकारः लोट्लकारः
करोतु
कुरुष्व द्विवचनम् इस् कुरु कुरुष्व
अहं चिन्तयामि कुरुष्म अस्ति महोदय परन्तु पश्यामि
कुरुष्व कुरुष्म यस् आरभावहे वहै आरभावहै आरम्भम्
आरभावः आरभावहै इस् दट् आल्सो द्विवचनम् आरभाव
चिन्तयामि किञ्चित् उट्टङ्कनं दोषमस्ति आरम्भावहै
आरम्भं करोतु इति पिता आज्ञा ददाति
नास्ति महोदय आरभावहै आरभावहै द्विवचनमस्ति वा
आरम्भावहै किञ्चित्
मा नास्ति
न
दोषमस्ति मिस्टेक् दोषमस्ति इत्युक्ते
तदपि भगिनी भवती वदतु अहं तु तथा एव चिन्तयामि अत्र किञ्चित् दोषमस्ति आरम्भः कुर्वावहै वयं वदामः किल
अत्र आरभावहै नाम आवाम् आरम्भं कुर्मः इति अन्ते लैक् लेट् अस् स्टार्ट् इति अर्थः भवति अस्तु सम्भाषणे प्रश्नाः सन्ति वा लास्ट् वीक् ओन्लि वि स्टार्टेड् रैट् महोदय सो टुडे वि लैक् गोयिङ्ग् थ्रू इट् लिटिल् मोर् डीटेल् सो सो नेक्स्ट् फ्यू वीक्स् प्राब्लि नेक्स्ट् फ्यू अट्लीस्ट् फोर् लैक् वन् or one and a half months we'll only be doing this so lat lakara lot lakara so that wherever we need to use that we'll be fluent in it
that's
अत्र भवान् पश्यति एतत् पठन्तु गोपाल् महोदय
भवान् पश्यतु, भवन्तौ पश्यतां, भवतः पश्यन्तु, भवान् आगच्छतु, भवन्तौ आगच्छतां, भवन्तः आगच्छन्तु, भवान् स्वीकरोतु, भवन्तौ स्वीकुरुतां, भवन्तः स्वीकुर्वन्तु.
अत्र स्थगयतु. मोहन् महोदय, भवान् पठतु.
ओके, सारि सारि सारि. भवती पठतु, भवत्यौ पठतां, भवत्यः पठन्तु. पठतु, पठतु, पठतां, पठन्तु. भवती, भवत्यौ, भवत्यः. भवती उपविशतु, भवत्यौ उपविशतां, भवत्यः उपविशन्तु. भवती, भवत्यौ, भवतः, भवत्यः उपविशतु, उपविशताम्, उपविशन्तु. त्वं लिख, त्वां लिख, लिखतं, यूयं लिखत. त्वं वद, युवां वदतं, यूयं वदत. त्वं नय, युवां नयतं, यूयं नयत. Bhagini, how to remember this?
No. This is just for... you don't remember it like this, Mohitya. We'll see another form, but for now, just to see examples of how it is used. So
this is Madhyama Purusha?
There's no Uttama Purusha given here, that's all. Asto. Atra. यतोदाहरणं वाक्यानि लिखत. नागेश महोदय, भवान् भवान् इति उपयुज्य क्रियापदानि उपयोगं कुर्वन्तु.
भवान् सूचयतु, भवान् प्रेषयतु, भवान् त्यजतु, भवान् सञ्चरतु, भवान् प्रदर्शयतु, भवान् दण्डयतु. भवती अपि करोमि
वा? अत्र स्थगयतु. गोपाल् महोदय, भवान् भवति इति उपयुज्य करोतु.
भवती भवती सूचयतु, भवती गायतु, भवती चलतु, भवती मिलतु, भवती तिष्ठतु, जानाति विशेषप्रयोगमस्ति च, भवती ज्ञातु.
किं प्रश्नमस्ति महोदय?
जानाति, ज्ञातु. हि सेङ्ग् लोट्लकारः फार्म् आफ् जानाति, ज्ञातु.
ज्ञातु एव.
आम्. अत्र जानातु इति अपि
नाट् ज्ञातु. जानातु.
अस्तु. अनन्तरं भवती प्रक्षालयतु. अस्तु. अस्तु. अत्र यतोचितेन पदेन योजयत. अस्तु. सन्मार्गम् अनुसरतु. सहयोगं
ददातु
प्रकृतिं
किमर्थस्य
सन्मार्गं जयतु सन्मार्गम् अनुसरतु
सन्मार्गम् अनुसरतु सहयोगं
सहयोगं पश्यतु सहयोगं करोतु प्रकृतिं स्मरतु प्रकृतिं
पश्यतु इति भवति अहं चिन्तयामि
वटि साधयतु सहयोगं करोतु प्रकृतिं स्मरतु प्रकृतिं
पश्यतु
Pashyatu is not there in the list.
It is here, Mohdi. It is the second verb. There is no sadhayatu.
Sorry, I think that list is different.
One second. Let me see if the list is different. Let me see if the... One second, let me see if the list is different in the book.
Okay, it is match the following, is it? Okay. No, sahayogam. Sahayogam dadatu.
Astu.
Prakritim pashyatu. Samskritam. स्मरतु संस्कृतम् अनुसरतु
सन्मार्गं कृते भवति वा किल पूर्वमेव सन्मार्गम् अनुसरतु
ध्येयं ध्येयं टिङ्क्
चिन्तयामि ध्येयं स्मरतु संस्कृतं लसतु
संस्कृतं लसतु भारतं जयतु
वाट् इस् लसतु एण्ड् ध्येयं मीनिङ्ग्
शैन्स् शैन्स् शैन्स्
लसतु
इङ्ग्लिश् वर्ड् लस्टर् लस्टर् कम्स् फ्रम् लसतु
लसर्
लस्टर् लस्टर्
लस्टर् ओ
English word luster.
Yeah, yeah. Dheyam?
I don't know what dheyam
means.
Dheyam smaratu.
Smaratu. Kinchit dheyam atra vasti vakila. So dheyam mantram smaratu. Lasatu ityukte aham chintayami embrace.
Lasatu, I thought it shines.
No. Embrace.
Embrace.
Lasatu Sanskritam. Vadami kila.
Embrace iti. Astu. Nantaram. Parishram. Astu. Sorry. Kshamitam. इदानीं कोष्टके विद्यमानेन उच एतत् वयं गतवर्गे कृतवन्तः परन्तु पुनः गृहपाठरूपेण कुर्वन्तु अत्र एतत् कुर्मः अत्र किम् अस्ति चेत् वर्तमान लट्लकारे रूपमपि दत्तमस्ति वयं लोट्लकारे कुर्मः. अस्तु, अत्र प्रथमतया अत्र लोट्लकारस्य रूपाणि दत्तानि सन्ति. नागेश महोदय भवान् पठतु.
चतुर्थवाक्यं उपयोज भगिनी अथवा कुतः आरम्भ?
अत्र टेबल् अस्ति किल, तत्र रूपाणि दत्तानि सन्ति, एकवारं पठतु.
अस्तु, भवान् अथवा सः पठतु, भवन्तौ अथवा तौ पठतां, भवन्तः अथवा ते पठन्तु, त्वं पठ, युवां पठतं, यूयं पठत, अहं पठानि, आवां पठाव, वयं पठाम.
Okay, is there an easy way to remember this, like, you know, the other one, just like plain Laklakaraha is a lot easy. Like, Nivaha Maha, Tita Hanti, like that, anything like that.
Aham Chintyami Mahodaya, Katham Smaramaha Iti Vishaya Na Chintyatu. Do not even think that. तस्य अभ्यासं कुर्म, अभ्यासेन एव आगच्छति.
पठ पठतं, लोट्लकारः जनरलि मोस्ट् आफन् वि यूस् मध्यमपुरुष,
प्रथमपुरुष,
प्रथमपुरुष और् मध्यमपुरुष, रेर्लि यूस्
उत्तमपुरुष,
उत्तमपुरुष.
तदपि द्विवचनं कुत्रापि नागच्छति, एकवचनं बहुवचनं तावदेव.
पुनः वदतु महोदय, पुनः वदतु.
उत्तमपुरुषस्तु वयं प्रायः उत्तमपुरुष लोट्लकारे उत्तरम् उत्तम पुरुग पुरुष पदानि उपयोगं न कुर्मः, किल. मध्यमपुरुषः किञ्चिदेव, प्रथमपुरुषः वयं मोस्ट् आफ् द टैम् लोट्लकारे वयम् उपयोगं कुर्मः. परन्तु द्विवचनमपि न प्रयोगं कुर्मः. पठतां, पठतं, पठाव, प्रायः.
अस्तु, अत्र रिक्तस्थानानि पूरयामः. अत्र क्रीडति, अत्र मोहन् महोदय भवान् करोतु.
क्रीडति, क्रीडतु, क्रीड क्रीडतां, क्रीडन्तु. दिस् इस् आल् प्रथमपुरुषः. क्रीडति, क्रीडतु, क्रीडतः, क्रीडतां, क्रीडन्ति, क्रीडन्तु. ओके, नमति, नमतु, नमति, नमतः, नमतां, नमन्ति, नमन्तु, नमन्तु एण्ड् नमन्ति, दट् इस् ईज़ि. क्रीडति, क्रीडतु इस् ईज़ि. जस्ट् मध्ये द्विवचनम् इस् चेञ्ज्. रक्षति, रक्षतु, रक्षति, रक्षतः, रक्षन्ति, रक्षतः इस् रक्षतां, रक्षन्ति, रक्षन्तु, भ्रमति, भ्रमतु, भ्रमतः, भ्रमतां, भ्रमन्ति, भ्रमन्तु. सो दिस् इस् प्रथमपुरुषः. मध्यमपुरुषः इस् स्मरसि, इस् स्मर, स्मरसि, स्मरतः, स्मरतं, स्मरत इस् स्मरत, त्यजसि, त्यजस,
त्यज,
त्यज, ओके, नो स, ओके, त्यज, त्यजतः इस् त्यजतं, त्यजत इस् त्यजत, स्पृशसि, स्पृश, स्पृशतः इस् स्पृशतं, स्पृशत कूजसि कूज कूज
कूज
कूजत इट्स कूजत दिस् इस् मध्यम पुरुषः उत्तम पुरुषः हसामि हसानि हसावः हसाव हसामः हसाम पचामि पचानि पचावः पचाव पचामः पचाम तरामि तराणि तरावः तराव तरामः तराम भवामि भवानि भवाव भवाम If we say it like this, it's a little easier.
अस्तु अत्र प्रश्नाः सन्ति वा
न
एतदपि गृहपाठरूपेण कुर्वन्तु अनन्तरं मां प्रेषयन्तु एतत् कुर्मः अत्र उदाहरणपदानि दृष्ट्वा रिक्तस्थानानि उचितपदैः पूरयत अस्तु Be careful, not all the 9 forms are given here. अस्तु
अत्र आत्मनेपदी आगच्छति वा भगिनि वन्दते
आम् अस्तु
वयम् आत्मनेपदिनः अभ्यासं न कुर्मः किल
अस्तु अग्रिमवासरे वयम् आत्मने किञ्चित् परस्मैपदी इत्यस्य अभ्यासं कृत्वा आत्मनेपदी गच्छामः अद्य अत्र स्थगयामः अस्तु अहं रेकार्डिङ्ग् प्रेषयामि बहु क्षम्यताम् ऐ हेवेण्ट् सेण्ट् द रेकार्डिङ्ग् फ़र् द पास्ट् फ्यू वीक्स् ऐ वास् जस्ट् वेरि बिसि ऐ एम् वेरि सारि टुडे ऐ वास् सेण्ट् आल् द रेकार्डिङ्ग्स् दट् आर् मिस्सिङ्ग् अस्तु अस्तु धन्यवादः
धन्यवादः
धन्यवादः नमस्कारः
राम राम